इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना द्वीपराष्ट्रे भारतेन पूरितानां विभिन्नानां परियोजनानां विषये अपि राष्ट्रपतये मोइज़्ज़ू इत्यस्मै सूचना प्रदत्ता। तेनोक्तं यत् तेन मालदीवस्य राष्ट्रपतिना मोइज़्ज़ू इत्यनेन सह हनमाधु अन्ताराष्ट्रिय वायुस्थानकस्य उड्डयन मार्गस्य आभासीय माध्यमेन उद्घाटनं कृतम्। भारतीय रूपे कार्ड इति धन विनिमय माध्यमस्यापि स्वीकार्यता मालदीवदेशे समारब्धास्ति। उभयोर्देशयोर्मध्ये भ्रष्टाचार शमनेन सह नैकविधानां द्विपक्षीय विषयाणामुपरि अपि सन्धिपत्रेषु हस्ताक्षराणि विहितानि सन्ति। जम्मू कश्मीर हरियाणा राज्ययोः जातस्य विधानसभा निर्वाचनस्य मतगणना अद्य आरभ्यते। मतगणना प्रातः अष्टवादनतः समारप्स्यते। परिणामः मध्याह्ने द्वादशवादने आयास्यति इति सम्भाव्यते। सर्वप्रथमं प्रैष्यमतपत्राणां गणना करिष्यते। मतगणना प्रक्रियां सुचारुविधिना प्रचालयितुं निर्वाचनायोगेन व्यापक प्रबन्धनानि विहितानि। आयोगेन स्वीये आन्तर्जालिके www.eci.gov.in इत्यत्र परिणामानां प्रचार प्रसाराय एका आधारभूत संरचना निर्मिता। अवधेयं वर्तते यत् जम्मू कश्मीर राज्ये 90 नैर्वाचनिक क्षेत्रेभ्यः सितम्बर मासस्य 18, 25 अपि च अस्य मासस्य प्रथमे दिनांके च मतदानं समनुष्ठितम्। तत्रैव हरियाणा राज्ये 90 विधानसभा क्षेत्रेभ्यः मतदानं मासस्यास्य पञ्चमे दिनांके सम्पादिता। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्यां 2020वर्षस्य 70वं राष्ट्रिय चलच्चित्र पुरस्कारं प्रदास्यति। अत्रावसरे प्रख्यातः अभिनेता मिथुन चक्रवर्ती चलचित्र क्षेत्रे सर्वोच्च सम्मानेन दादा साहब फाल्के पुरस्कारेण सम्मानितो भविष्यति। ऋषभशेट्टी इत्येषः कंतारा चलचित्राय सर्वश्रेष्ठ अभिनेतुः पुरस्कारेण सम्मानं प्राप्स्यति। सर्वश्रेष्ठ अभिनेत्र्याः पुरस्कारः तमिल चलचित्रस्य थिरुचित्राम्बलम् इत्यस्य निथ्या मेनन इत्यस्यै प्रदास्यते। सहैव गुजराती चलचित्रस्य कच्छ एक्सप्रेस इत्यस्य मानसी पारेख्यः अपि सर्वश्रेष्ठ अभिनेत्र्याः पुरस्कारेण सम्मानिता भविष्यति। तत्रैव संगीत श्रेण्यां सर्वश्रेष्ठ पुरुष पार्श्वगायकस्य पुरस्कारः अरिजीत सिंह इत्यस्मै प्रदास्यते। राष्ट्रपतिः द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप धनखड़ च नवदिल्ल्यां ह्यः मालदीवदेशीयेन राष्ट्रपतिना डॉ मोहम्मद मोइज़्ज़ू इत्यनेन साकं संवादं मेलनं च कृतवन्तौ। मोइज़्ज़ू इत्यस्य सम्माने भोजः अपि आयोजितः राष्ट्रपतिना। उभौ नेतारौ मालदीव भारत देशयोः द्विपक्षीय सम्बन्धान् समीक्षितवन्तौ। राष्ट्रपतिः न्यगादीत् यत् प्रतिवेशी प्रथमः लक्ष्यसागरः च इत्यनयोः नीत्योः अन्तर्गतं मालदीवदेशः एकः महत्वपूर्णः सहभागी देशो वर्तते। केन्द्रीय नवीन नवीकरणीयोर्जा मन्त्री प्रह्लाद जोशी प्रावोचत् यत् 30वर्षं यावत् भारतस्य शीर्षेषु 10 जलपोत निर्माण देशेषु अपि च 47वर्षपर्यन्तं शीर्षेषु 5 देशेषु समाविष्टम् लक्ष्यम् अस्ति। ह्यः जर्मनीदेशे हैम्बर्ग स्थिरता सम्मेलने भाषमाणः केन्द्रीय मन्त्री नवीकरणीयोर्जा क्षेत्रे भारतस्य प्रगतिं प्रकाशितवान्। भारतम् अस्य मासस्य 14 दिनांकतः 24 दिनांकपर्यन्तं नवदिल्ल्याम् अन्ताराष्ट्रिय दूरसंचार संघस्य विश्व दूरसंचार मानकीकरण सभायाः आतिथ्यं विधास्यति। प्रथमवारमिदं आयोजनं एशिया प्रशान्त क्षेत्रे आयोजयिष्यते। एतस्मिन् कार्यक्रमे 3000+ विश्वनेतारः भागं भजिष्यन्ति अपि च 90%+ देशानां प्रौद्योगिक विशेषज्ञाः अपि कार्यक्रमे सहभागितां सहयोगं च करिष्यति। इति वार्ताः।